नमस्तेभ्यः।
अद्य लघुसिद्धान्तकौमुद्याः समासप्रकरणे तत्पुरुषसमासस्य चतुर्थः पाठः। अद्य वयं सप्तमी तत्पुरुषं डिक् संख्यावाचकयोः समासं च पश्यामः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्। आदौ ग्रन्थं पठामः। तत्पुरुषः अधिकारोऽयं प्राग् बहुव्रीहेः द्विगुश्च द्विगुरपि तत्पुरुषसंज्ञकः स्यात्। द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वासमस्यते स च तत्पुरुषः। कृष्णं श्रितः कृष्णश्रितः इत्यादि तृतीया तत्कृतार्थेन गुणवचनेन तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेन अर्थेन च सह वा प्राग्वत्। शङ्कुलयाखण्डः शङ्कुलाखण्डः धान्येन अर्थः धान्यार्थः। तत्कृतेति किम् अक्ष्णाकाणः। कर्तृकरणे कृता बहुलं कर्तरिकरणे च तृतीया कृदन्तेन बहुलं प्राग्वत्। हरिणात्रातः हरित्रातः नखैर्भिन्नः नखभिन्नः। कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं नखनिर्भिन्नः। चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत्। यूपायदारु यूपदारो तदर्थेन प्रकृतिविकृतिभावः एव इष्टः तेन इह न रन्धनाय स्थाली। अर्थेन नित्यसमासः विशेष्यलिङ्गता चेति वक्तव्यम्। द्विजार्थस्तूपः द्विजार्थाय वागूः द्विजार्थं पयः भूतबलिः गोहितं गोसुखं गोरक्षितम्। पञ्चमीभयेन चोराद्भयं चोरभयं स्तोकान्तिकदूरार्थकृच्छ्राणिक्तेन। पञ्चम्यास्तोकादिभ्यः अलुगुत्तरपदे तोकान्मुक्तः अन्तिकादागतः अभ्यासादागतः दूरादागतः कृच्छ्रादागतः। षष्ठी सुवन्तेन प्राग्वत् राजपुरुषः पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे अवयविना सह पूर्वादयः समस्यन्ते। एकत्वसङ्ख्याविशिष्टश्चेदवयवी षष्ठीसमासापवादः पूर्वङ्कायस्य पूर्वकायः अपरकायः एकाधिकरणे किम् पूर्वश्छास्त्राणाम् अर्धन्नपुंसकम् समांशवाची अर्धशब्दः नित्यं क्लीबे सः प्राग्वत् अर्धं पिप्पल्याः अर्धपिप्पली। चतुर्थी पञ्चमी षष्ठी तत्पुरुषसमासाः दृष्टाः। तत्र पञ्चमी तत्पुरुषः पञ्चमी भयेन इति सूत्रं भयशब्देन पञ्चम्यन्तं समस्यते। तत्र वार्तिकेन भीत भीति भी इत्येते शब्दाः अपि योज्यन्ते। एतैः सह अपि पञ्चम्यन्तं समस्यते इति स्तोकान्तिकदूरार्थकृच्छ्राणिक्तेन इत्यनेन अपि पञ्चमी तत्पुरुषः विधीयते। स्तोकार्थाः अन्तिकार्थाः दूरार्थाः कृच्छशब्दश्च पञ्चम्यन्तः समर्थेन सुवन्तेन समस्यते इत्यर्थः। तत्र स्तोकादीनां स्तोकान्तिकदूरार्थकृच्छ्राणिक्तेन इति सूत्रेण समासे पञ्चम्याः स्तोकादिभ्यः इत्यनेन पूर्वपदात् या पञ्चमी विभक्तिः तस्याः अलुक् विधीयते इति विशेषः। स्तोकान्मुक्तः दूरादागतः इत्यादि उदाहरणानि। एकदेशिसमासः षष्ठीतत्पुरुषस्य अपवादः अवयववाचकानां पूर्व अपर अधर उत्तर एतेषां शब्दानां एकवचनान्तेन अवयविवाचकेन सह समासः भवति इति पूर्वापराधरोत्तरम् एकदेशिनैकाधिकरणे इति सूत्रेण उच्यते। पूर्वं कायस्य पूर्वकायः इति उदाहरणम्। अर्धं नपुंसकम् इत्यनेन अपि अर्धशब्दस्य नपुंसकस्य अवयविवाचकेन सह समासः विधीयते। अर्धं कायस्य अर्धकायः अथवा अर्धं पिप्पल्याः अर्धपिप्पली इत्युदाहरणम्। तत्र अर्धपिप्पली पिप्पल्यर्धः, अर्धपिप्पली इत्यत्र अर्धं पिप्पल्याः इति विग्रहः, अर्धं नपुंसकम् इत्यनेन एकदेशसमासः, अर्धशब्दस्य प्रथमानिर्दिष्टत्वात् उपसर्जनसंज्ञा पूर्वनिपातश्च भवति, पिप्पल्याः समभागः समांशः इत्यर्थः। पिप्पल्यर्धः इति तु पिप्पल्याः अर्धः इति अर्धशब्दः पुल्लिङ्गे अस्ति, तस्य भागः इत्यर्थः। तत्र षष्ठी इत्यनेन षष्ठी तत्पुरुषसमासः, पिप्पल्याः कश्चित् भागः न तु समांशः इत्यर्थः। तत्र वाक्यानि यैः प्रेषितानि तानि परिशीलितानि, अन्ये प्रेषयिष्यन्ति इति विश्वसिमि। अग्रे गच्छामः। सप्तमी तत्पुरुषसमासः, द्वितीयायाः आरभ्य षष्ठीपर्यन्तं समासः दृष्टः। सामान्यतत्पुरुषे अन्तिमः समासः सप्तमी तत्पुरुषः। सूत्रमस्ति सप्तमी शौण्डैः इति, सप्तमी इति प्रथमा विभक्त्यन्तं, शौण्डैः इति तृतीया विभक्त्यन्तम्। अन्यत् सर्वमपि अस्ति, सुहसः सुपा समासः इत्यादि। इदं विधिसूत्रं येन सप्तमी तत्पुरुषसमासः विधीयते। सप्तम्यन्तं शौण्डादिभिः प्राग्वत् इति सूत्रार्थः। शौण्डैः इति बहुवचनेन गणः सूच्यते। शौण्ड इत्यारभ्य यः गणः अस्ति, तस्मिन् गणे ये शब्दाः सन्ति तैः शब्दैः सह सप्तम्यन्तस्य समासः भवति इत्यर्थः। अक्षेषु शौण्डः, अक्षशौण्डः इत्यादि। तत्र प्रथमः शब्दः तस्मिन् गणे शौण्डः इत्यस्ति। शौण्डशब्दस्य कुशलः अथवा निपुणः इत्यर्थः। अक्षशब्दस्य दायकट्टं, तत्र ग्याम्ब्लिङ्ग्, द्यूते उपकरणं यद्भवति तस्य अक्षाः इति नाम। द डैस् और् द दायकट्टम् इस् काल्ड् अक्ष। अक्षेषु शौण्डः, यः द्यूते अत्यन्तं चतुरः सः अक्षशौण्डः, यथा शकुनिः अक्षशौण्डः इति प्रसिद्धम्। तत्र शौण्डादिगणे के के शब्दाः सन्ति इति पश्यामः चेत्, शौण्ड धूर्त कितव व्याड प्रवीण संवीत अन्तर् अधि पटु पण्डित चपल निपुण, एते शब्दाः शौण्डादिगणे सन्ति। तत्र शौण्ड धूर्त कितव व्याड एते शब्दाः सर्वे किञ्चित् नेगेटिव् अर्थे सन्ति। सः कुशलः, कौशलमस्ति, तेन सह धूर्तस्वभावः, कन्निङ्ग्नेस् अपि अस्ति इत्यर्थः। शौण्डः इत्यत्रापि न केवलं कौशलम् अत्र अभिप्रेतम्, अपि तु तत्र दुष्टः स्वभावः अपि तत्र अभिप्रेतं भवति एतैः शब्दैः। धूर्तः, हितवः, व्याडः, सर्वे शब्दाः प्रायेण समानार्थकाः, सूक्ष्मभेदाः भवन्ति किन्तु अर्थः समानः। प्रवीण पण्डित निपुण, अत्र तु नेगेटिव् अर्थः नास्ति, सः अत्यन्तं तस्य तत् प्रावीण्यम् अथवा पाण्डित्यमस्ति इत्यर्थः। नृत्ये निपुणः, नृत्यनिपुणः, व्याकरणे पण्डितः, व्याकरणपण्डितः, पाके प्रवीणः, पाकप्रवीणः इत्येवं। प्रवीण पण्डित निपुण, शौण्ड धूर्त कितव व्याड, अन्ये शब्दाः अन्यार्थकाः सन्ति। अन्यत् किमस्ति अत्र, संवीतः असोसियेटेड् वित् और् क्लोस्लि इन् असोसियेशन् वित्, अन्तर् इत्यस्ति, अन्तः इन्सैड् इत्यर्थः, अधि विदिन् संथिङ्ग् इत्यर्थः। पटुः अपि अस्ति, अत्रैव भवेत्, प्रवीण पण्डित निपुण पटु, पटुशब्दस्यापि निपुणः इत्येव अर्थः। एवम् अस्मिन् गणे ये शब्दाः सन्ति तैः सह सप्तम्यन्तं समस्यते इत्यर्थः। अनेन सप्तमी तत्पुरुषसमासः उच्यते। एवं च द्वितीयायाः आरभ्य सप्तमी पर्यन्तं समासाः दृष्टाः. सर्वाणि समासविधायकसूत्राणि लघुकौमुद्यां न सन्ति, किन्तु प्रमुखानि यानि सूत्राणि तानि व्याख्यातानि. इदानीमत्र योगविभागः इति किञ्चिदुच्यते. द्वितीया तृतीया इत्यादि योगविभागात् अन्यत्रापि तृतीयादिविभक्तीनां प्रयोगवशात् समासो ज्ञेयः इति वाक्यमस्ति लघुसिद्धान्तकौमुद्याम्. कः अर्थः? द्वितीया श्रितातीतपतितगतात्यष्टप्राप्तापन्नैः, तृतीया तत्कृतार्थेन गुणवचनेन, चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः, पञ्चमी भयेन, सप्तमी शौण्डैः इति यानि पञ्चसूत्राणि सन्ति तत्र योगविभागः क्रियते. योगः इत्युक्ते सूत्रम्, सूत्रस्य छेदः क्रियते. यत् एकमेव सूत्रमासीत्, द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इति एकमेव सूत्रं, तत्र वयं मध्ये छित्त्वा सूत्रद्वयं कुर्मः. द्वितीया इति एकं सूत्रं, श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इति द्वितीयं सूत्रम्. प्रथमसूत्रस्य कः अर्थः? द्वितीया इत्येव सूत्रम्. यथा षष्ठी इति सूत्रमस्ति, कः अर्थः? षष्ठ्यन्तं समर्थेन सुबन्तेन समस्यते. समर्थः पदविधिः इत्यधिकारः, सः सुपा इति अनुवर्तते. षष्ठ्यन्तं येन केनापि सुबन्तेन समस्यते इति, एवं द्वितीया इति यदि योगविभागं कुर्मः तदा कः अर्थः भवति सूत्रस्य? द्वितीयान्तं समर्थेन सुबन्तेन समस्यते इत्यर्थः. अनन्तरं श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इति भिन्नं सूत्रम्. योगस्य एकस्य सूत्रस्य विभागः क्रियते. द्वितीया इति भिन्नं सूत्रं, श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इत्यत्र द्वितीया इति अनुवर्तते. अतः अस्य सूत्रस्य अर्थः समानः. इदानीम् अस्माभिः यत् पठितं, द्वितीयान्तं श्रितादिभिः समस्यते, अयमर्थः अस्त्येव. इदानीं विद्यमानस्य सूत्रस्य यः अर्थः, सः अर्थः अस्ति. तेन सह इतोपि एकं सूत्रमस्ति द्वितीया, द्वितीयान्तं समर्थेन सुबन्तेन समस्यते. अत्र किं सुबन्तम् इति निर्देशः नास्ति, यत्र कुत्रापि सामर्थ्यमस्ति तत्र समासः भवति. एवमेव तृतीया तत्कृतार्थेन गुणवचनेन इत्यत्र तृतीया इति एकं सूत्रं, तत्कृतार्थेन गुणवचनेन इति अपरं सूत्रम्. तृतीया इति सूत्रस्य कः अर्थः? तृतीयान्तं समर्थेन सुबन्तेन समस्यते. तत्कृतार्थेन गुणवचनेन इत्यत्र तृतीया इति अनुवर्तते, तस्य सूत्रस्य अर्थः तृतीयान्तं तत्कृतेन गुणवचनेन तत्कृतेन अर्थेन च समस्यते इत्यर्थः. अस्य योगविभागः इति नाम. द्वितीया तृतीया इत्यादि योगविभागात् एवं पञ्चसु सूत्रेषु, द्वितीया तृतीया चतुर्थी पञ्चमी सप्तमी, यत्र यत्र सूत्रमस्ति तत्र सर्वत्र योगविभागः क्रियते. किमर्थं क्रियते इति चेत्, अस्माकं काव्येषु प्रयोगाः दृश्यन्ते यत्र द्वितीया तत्पुरुषः, तृतीया तत्पुरुषः इत्यादीनां प्रयोगः कविभिः कृतः, किन्तु तदर्थं सूत्रं नास्ति. उदाहरणं पश्यामः, वेदविद्वान्, गुरुशुश्रूषुः इत्यादि प्रयोगाः सन्ति. वेदं वेत्ति इति वेदविद्वान्, विद्वान् इति कर्त्रर्थे प्रत्ययः, तत्र वेदं विद्वान् इति द्वितीयान्तस्य विद्वच्छब्देन समासः अस्ति. गुरुं शुश्रूषुः गुरुशुश्रूषुः, गुरुं सेवितुम् इच्छति इत्यर्थे गुरुशुश्रूषुः. एवं तृतीया, छायया द्वितीयः छायाद्वितीयः, बहु उत्तमः प्रयोगः. कः अर्थः? सः एकः पुरुषः अस्ति, तेन सह द्वितीयः कः अस्ति इत्युक्ते तस्य छाया एव अस्ति, अन्यः कोऽपि नास्ति, सर्वथा एकाकी. सो ओन्ली अकम्पनीड् बै हिस् शाडो, अन्यः कोऽपि नास्ति सहायकः, सः एकाकी एव इत्यर्थे छायाद्वितीयः. छायया द्वितीयः छाया द्वितीयः पुंसा अनुजः पुंसानुजः इत्युक्ते सः अनुजः यङ्गर् ब्रदर् यदि अनुजः अग्रजः अग्रजा सो द एल्डर् सिब्लिङ्ग् केन् ईदर् बी अ ब्रदर् और् अ सिस्टर् अ मेन् और् अ वुमन् तत्र पुंसा अनुजः इत्युक्ते अस्य अग्रजः पुमान् इत्यर्थः पुंसानुजः एवं प्रयोगाः काव्येषु सन्ति चतुर्थीसमासस्य बहु प्रसिद्धं परस्मैपदम् 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 अत्र अलुक् अपि अस्ति समासः अस्ति धर्माय नियमः धर्मनियमः एवं पञ्चमीसमासस्य वामात् इतरः वामेतरः वाम इत्युक्ते लेफ्ट् वामाद् इतरः अन्यः रैट् वामेतरस्तस्य करः इति प्रसिद्धं रघुवंशे अस्ति तस्य दक्षिणहस्तः स्तब्धः यदा दिलीपः सिंहं मारयितुं प्रवृत्तः तदा तस्य वामेतरः करः इति अधर्मात् जुगुप्सुः यस्य अधर्मात् जुगुप्सा अस्ति सः अधर्मजुगुप्सुः सप्तमीसमासः अत्यन्तं बहुत्र दृश्यते योगे रतः योगरतः योगरतो वा भोगरतो वा सङ्गरतो वा सङ्गविहीनः इति भुवने विदितः भुवनविदितः जातं वंशे भुवनविदिते मेघदूते अस्ति एवं बहवः प्रयोगाः काव्येषु सन्ति सूत्रं नास्ति योगरतः किमुच्यते सप्तमी शौण्डादिगणे ये शब्दाः तैः समस्यते इति किन्तु रथशब्दः तत्र नास्ति एवं पञ्चमी भयेन समस्यते इतरशब्दः जुगुप्सुशब्दः नास्ति एवं यत्र प्रयोगः शिष्टप्रयोगः अस्ति तत्र सूत्रं समर्थयितुं नास्ति तत्र योगविभागेन इदानीं वयं किं वदामः पञ्चमी इति योगविभागः क्रियते तदा पञ्चम्यन्तं समर्थेन सुबन्तेन समस्यते अत्र सामर्थ्यम् अस्ति समासः भवति एवं प्रयोगान् साधयितुं तदेव उक्तं द्वितीया तृतीया इत्यादि योगविभागात् अन्यत्रापि तृतीयादिविभक्तीनाम् अन्यत्र इत्युक्ते यानि पदानि सूत्रे निर्दिष्टानि तद्विहाय अन्यत्र इवन् इन् केसस् वेर् अ वर्ड् इस् नाट् इन्क्लूडेड् इन् द समाससूत्र तत्रापि तृतीयादिविभक्तीनां प्रयोगवशात् समासः ज्ञेयः अत्र द कीवर्ड् प्रयोगवशात् प्रयोगशरणाः वैयाकरणाः इत्येव अस्माकं प्रथमः नियमः वैयाकरणैः इदम् अयं प्रयोगः दुष्टः इति नोच्यते यदि शिष्टप्रयोगः तर्हि प्रयोगस्य साधुत्वं कथञ्चित् दर्शनीयम् इति अस्माकं नियमः सो वि आर् बौण्ड् टु डिफेण्ड् प्रयोग वै शिष्ट सर्वेषां प्रयोगाः इति न ये शिष्टाः कवयः ऋषयः तेषां प्रयोगानां साधुत्वं वक्तव्यमेव व्याकरणेन इति नियमः अस्ति अतः तदर्थम् अस्माभिः योगविभागः क्रियते योगविभागेन नूतनपदानां सृष्टिः न क्रियते सो इट्स् वेरि क्लियर् इफ् यु डू द योगविभाग तेनैव सूत्रेण यत्र कुत्रापि समासः कर्तुं शक्यते इत्यर्थः न यद्यपि द्वितीया इति योगविभागः क्रियते तत्र द्वितीयान्तं समर्थेन सुबन्तेन समस्यते अस्तु अहं सर्वत्र तर्हि द्वितीयासमासं करोमि यत्र यत्र द्वितीया विभक्तिः तत्र सर्वत्र द्वितीयासमासं करोमि इति न क्रियते प्रयोगवशात् समासः ज्ञेयः ये शिष्टैः प्रयुक्ताः तेषां प्रयोगाणां समर्थनं योगविभागेन क्रियते तत्तु योगविभागेन एव करणीयमिति नास्ति भिन्नाः उपायाः सन्ति देर् आर् सेवरल् वेज् इन् विच् वि डिफेण्ड् सच् प्रयोगस् तत्र नारायणविभट्टतिरिः इत्यस्ति प्रसिद्धः नारायणीयम् इति स्तोत्रस्य कर्ता सः प्रसिद्धः वैयाकरणः अपि सः एवं वदति ఇహానుక్త సమాసార్థం ద్వితీయేత్యాది ఖండ్యతాం కృతా బహుళమిత్యేతద్ బాహుల్యం వా విజృంభతాం సుప్సుపేతి సమాసో వా బోధ్యః శిష్ట ప్రయుక్తిషు శబ్దాః శిష్టైః ప్రయుక్తాస్తు సాధవః సర్వథా మతాః ప్రక్రియా సర్వత్వం ఇది గ్రంథః. యథా అస్మాకం వైయాకరణ సిద్ధాంత కౌముదీ అస్తి తత్సదృశ ఏవ గ్రంథః ప్రక్రియా సర్వత్వం ఇది నారాయణ భట్టతిరిణా నిర్మితః. తత్రాపి సూత్రాణి దీయంతే సూత్రాణాం అర్థః ఉదాహరణాని సర్వం దదాతి. తత్ర సహ ఉపాయత్రయం ప్రదర్శయతి. ఏ సమాసాః శిష్ట ప్రయుక్తాః కింతు సూత్రం నాస్తి తస్య సమర్థనార్థం ఉపాయత్రయమస్తి. ప్రథమం కిం ఇహ అనుక్త సమాసార్థం. ఏ సమాసాః అనుక్తాః నామ పాణినినా తే శబ్దాః న ఉక్తాః తథాపి సమాసః దృశ్యతే తదర్థం ద్వితీయా ఇత్యాది ఖండ్యతాం. ఖండనం నామ కర్తనం. సో యోగ విభాగః కరోత్ యోగ విభాగం వా కరోతు. కృతా బహుళం ఇత్యేతద్ బాహుల్యం వా విజృంభతాం. అన్యే కేచన వదంతి కర్తృకరణే కృతా బహుళం ఇత్యస్తి. బహుళగ్రహణస్య బహూని ప్రయోజనాని సంతి. తత్ర బహుళగ్రహణాత్ ఏతాదృశ సమాసాః వక్తుం శక్యాః ఇతి కేచన వదంతి. బాహుల్యం వా విజృంభతాం తద్వా కరోతు. సుప్సుపా ఇతి సమాసః వా అథవా ఏతత్ కిమపి మాస్తు ఆదౌ ఏవ అస్మాభిః పఠితం. కిం సుబంతం సుబంతేన సమస్యతే. కేవల సమాసః అస్తి. యత్కిమపి సుబంతం అన్యేన సుబంతేన సమస్యతే. సుప్సుపేతి సమాసో వా బోధ్యః శిష్ట ప్రయుక్తిషు. శిష్టైః ప్రయుక్తాః ఏ శబ్దాః తేషు ఏతేషు యః కోపి ఉపాయః ఆశ్రయితుం శక్యతే శబ్దాః శిష్టైః ప్రయుక్తాః తు సాధవః సర్వథా మతాః. కంక్లూజన్ కిం? యది శిష్ట ప్రయుక్తః శబ్దః అస్తి తర్హి సః శబ్దః సాధుః. తత్ర వివాదః ఏవ నాస్తి. తస్య ప్రయోగస్య సిద్ధ్యర్థం యత్కిమపి కరోతు. సో వాట్ హీ బేసికలీ సేస్ ఇస్ ఇఫ్ అ వర్డ్ హ్యాస్ బీన్ యూజ్డ్ బై అ శిష్ట. బై శిష్ట వి మీన్ దోస్ హూ హ్యావ్ స్టడీడ్ గ్రామర్ అండ్ దోస్ హూ శిష్టస్య లక్షణం బహు అస్తి. దోస్ హూ ఆర్ లెర్న్డ్ అండ్ హూ ఆర్ యాక్సెప్టెడ్ ఇన్ సంస్కృత ఈదర్ ద లిటరేచర్ ఆర్ యాజ్ సిఎస్. సో తేషాం ప్రయోగ సాధు. వాట్ దే యూజ్ ఈస్ కరెక్ట్. హౌ వి డిఫెండ్ ఇట్, హౌ వ్యాకరణ డిఫెండ్స్ ఇట్ ఇస్ అ ప్రాబ్లమ్ ఆఫ్ వ్యాకరణ, నాట్ అ ప్రాబ్లమ్ ఆఫ్ ప్రయోగ. సో ఇట్స్ అ వెరీ యునీక్ వ్యూ పాయింట్ ఫ్రమ్ విచ్ సాంస్క్రిట్ గ్రామర్ ఆపరేట్. ఓకే, ఇట్ ఈస్ నాట్ దట్ గ్రామర్ సేస్ దిస్ ఇస్ కరెక్ట్, దిస్ ఇస్ రాంగ్. సో whoever it is, if he uses the wrong prayoga, it is wrong. That is not how we operate. So we pay more attention to prayoga. So yadi prayoga asti tasya sadhutvam katham sadhayitum shakyate ityetadartham bhinnaha upayaha santi. So there are such techniques, yoga vibhaga, bahula grahana or a general supsupa samasa. సో ఏతత్ కిమపి ఉపయుజ్య శిష్ట ప్రయోగానాం సాధుత్వం ఉచ్యతే. అత ఏవ ప్రయోగవశాత్ ఇతి ఉక్తమస్తి. ప్రయోగం ఆశ్రిత్య తేషాం సాధుత్వం ఉచ్యతే. అయమేవ యోగ విభాగః ఇతి కథ్యతే. ప్రశ్నాః సంతి వా? అగ్రే గచ్చామః. అనేన సామాన్య తత్పురుషః సమాప్తః. ద్వితీయ తృతీయ చతుర్థీ పంచమీ షష్ఠీ సప్తమీ ఇత్యేవం భిన్న విభక్త్యంతానాం శబ్దానాం కైః శబ్దైః సహ సమాసః భవతి ఇతి జ్ఞాతవంతః. అగ్రిమం సూత్రమస్తి దిక్ సంఖ్యే సంజ్ఞాయాం ఇతి. सूत्रद्वयमस्ति, पदद्वयमस्ति सूत्रे, दिक् संख्ये इति प्रथमा विभक्तौ द्विवचनं, संख्या संख्ये संख्याः, दिक् च संख्या च दिक् संख्ये प्रथमा विभक्तौ द्विवचनं, संज्ञायाम् इति सप्तमी, समानाधिकरणेन इति अनुवर्तते. तत्र पूर्वतनसूत्रमस्ति समानाधिकरणेन इति, तेन समानाधिकरणेन इति अनुवर्तते. सुप् सुपासः समासः तत्पुरुषः सर्वमपि अस्ति. इदं विधिसूत्रं कर्मधारय समासविधानम् येन क्रियते. अस्माभिः दृष्टं तत्पुरुषः चतुर्धा भवति, सामान्यतत्पुरुषः, कर्मधारयः, द्विगुः, नैप्रभृतयः इति. अनेन सूत्रेण कर्मधारयसमासः विधीयते. विशेषः अपि अस्ति दिक्संख्ये संज्ञायाम्. इदं विधिसूत्रं नियमसूत्रम् अपि, संज्ञायाम् एव इति नियमार्थं सूत्रम्. कः अर्थः? दिक्संख्ये दिग्वाचकाः शब्दाः, संख्यावाचकाश्च शब्दाः यदि समानाधिकरणेन समस्यन्ते तर्हि संज्ञायाम् एव इत्यर्थः. अर्थः अग्रे स्पष्टः भविष्यति. बहु मुख्यं सूत्रं प्रयोगदृष्ट्या इदम्. तत्र आदौ समानाधिकरण्यं नाम किम् इति ज्ञातव्यम्. यतोहि समानाधिकरणेन इति कर्मधारयसमासे सर्वत्र अन्वेति. समानाधिकरण्यं नाम किम्? समानम् अधिकरणं ययोः तौ समानाधिकरणौ. समानाधिकरण रेफर्स् टु टु पद शब्दद्वयं ययोः अधिकरणं समानम्. यथा उन्नतः बालकः इत्यस्ति. अत्र उन्नत औन्नत्यरूपः गुणः, तस्य उन्नत इति पदार्थः बालक इति पदस्य अर्थः. उन्नतः इति गुणवाचकः शब्दः. तत्र औन्नत्यम् इति यः गुणः, बालकत्वम् इति या जातिः, बालकः इति जातिवाचकशब्दः. औन्नत्यरूपस्य गुणस्य बालकत्वरूपजातेः च अधिकरणभूतः पदार्थः समानः. गुणः, क्रिया, जातिः सर्वमपि द्रव्यम् आश्रित्य एव भवति. सो एनि क्वालिटि, एनी एक्शन् आर् एनी जाति, जाति इस् अ क्लास्, इस् आल्वेस् फौण्ड् इन् अ द्रव्य. द्रव्यम् आश्रित्य एव एते सर्वे भवन्ति. अत्र औन्नत्यम् इति गुणः, गुणस्य आधारः, आधारभूतं द्रव्यं किम्? सो देर् इस् अ बाय्, दट् बाय् हेज् बोत् द क्वालिटि आफ् औन्नत्य टाल्नेस् एण्ड् द जाति आफ् बालकत्व. औन्नत्यं बालकत्वम् इत्युभयोः अधिकरणं समानम्. अतः एतौ समानाधिकरणौ. बेसिकली समानाधिकरण मीन्स् टू वर्ड्स् इण्डिकेटिङ्ग् द सेम् आब्जेक्ट्. ओके, दट् इस् विशेषण विशेष्य. फैनली विशेषण विशेष्य आर् समानाधिकरण, समानाधिकरणास् आफ् ईच् अदर्, बिकास् बोत् आफ् देम् आर् रेफरिङ्ग् टु द सेम् आब्जेक्ट्. तत्र समानाधिकरणशब्दस्य अर्थः एषः. उभयोः अधिकरणभूतः पदार्थः एकः एव. उन्नतः इत्यनेन यः पदार्थः उच्यते स एव पदार्थः बालकः इत्यनेन अपि उच्यते. अतः अत्र समानाधिकरण्यम् अस्ति इति वदामः. सो समानाधिकरण्यं यत्र अस्ति तत्र एकं पदं विशेषणम् इति कथ्यते, अपरं पदं विशेष्यम् इति कथ्यते. सो दो बोत् आफ् देम् मीन् द सेम्, वि ट्रीट् वन् आफ् देम् एस् द विशेष्य एण्ड् द अदर् एस् विशेषण, क्वालिफैङ्ग् दट् विशेष्य. सो सामान्यतः यत्र समानाधिकरण्यम् अस्ति तत्र लिङ्गं वचनं विभक्तिः समानं भवति. यल्लिङ्गं यद्वचनं या च विभक्तिः विशेष्यस्य, तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्यापि इति नियमः अस्ति. सो सामान्यतः यत्र समानाधिकरण्यमस्ति तत्र लिङ्गं वचनं विभक्तिः समानं भवति. इदं समानाधिकरणम्. अत्र किमुच्यते? दिग्वाचकः संख्यावाचकः शब्दः. एतद्वयमपि सामान्यतः विशेषणत्वेन एव उपयुज्यते किल. यथा पूर्वः देशः इत्युक्ते पूर्वः इति देशस्य विशेषणं समानाधिकरण्यमस्ति, ईस्टर्न् कण्ट्रि. अथवा पञ्च बालकाः, तत्र पञ्च इति बालकाः इत्यस्य विशेषणं समानाधिकरण्यम् अस्ति. यत्र समानाधिकरणेन समासः भवति तत्र संज्ञायाम् एव समासः भवति इति अनेन सूत्रेण उच्यते. कः अर्थः? संज्ञायाम् एव दिक्संख्ये समस्येते. पूर्वा इषुकामशमी इत्यस्ति उदाहरणम्. इषुकामशमी इति एकस्य देशस्य नाम. तत्र पूर्वा इति विशेषणमस्ति. तत्र पूर्वेषु कामशमी इति देशविशेषस्य संज्ञा. यथा अद्य वेस्ट् बेङ्गाल् इति कथ्यते. वेस्ट् आफ् बेङ्गाल्, पूर्वं बेङ्गाल् इति एकः प्रदेशः आसीत्, तत्र पश्चिमः भागः वेस्ट् बेङ्गाल् इति. किन्तु इदानीं भारते सः राज्यविशेषस्य संज्ञा. यद्यपि तद् राज्यं पश्चिमवङ्गम् इति यत् कथ्यते तत्तु भारतस्य पूर्वभागे अस्ति, तथापि पश्चिमवङ्गम् इति संज्ञा. इट् इस् द नेम् आफ् अ स्टेट्, नेम् आफ् अ प्लेस्, एण्ड् इट् इस् नाट् जस्ट् अ वेस्टर्न् पार्ट् आफ् बेङ्गाल्. तत्तु इदानीं वङ्गदेशस्य भागः एव न, पश्चिमवङ्गः इति देशविशेषस्य संज्ञा. एवमेव पूर्वेषु कामशमी. पूर्वेषु कामशमी इति कस्यचित् देशस्य नाम. इट् इस् द नेम् आफ् अ प्लेस्. तत्र पूर्वा इति दिग्वाचकस्य इषुकामशमी इत्यनेन समासः भवति. एवमेव सप्तऋषयः, सप्तर्षयः इति वदामः. तत्र सप्तर्षयः इत्युक्ते ये केऽपि सप्तऋषयः इत्यर्थः न. सप्तविशिष्टाः ऋषयः, कश्यपोत्रिः, भरद्वाजः इत्यादि सप्तऋषीणां नामानि उच्यन्ते. ते एव सप्तर्षयः, न तु अन्ये केचन सप्तऋषयः. इयमेव संज्ञा. सो बै संज्ञा वि मीन् इट् रेफर्स् टु अ पर्टिक्युलर् पदार्थ एण्ड् नाट् इन् जनरल्. सामान्यतः सप्तऋषीणां सप्तर्षयः इति नाम न. सप्तर्षयः इति यत्र वदामः तत्र सा संज्ञा. तत्र संख्यावाचकस्य सप्त इत्यस्य ऋषिशब्देन सह समासः भवति. कुत्र न भवति इति चेत् उत्तरावृक्षाः पञ्चब्राह्मणाः. अत्र सर्वत्र भवति. पञ्चपाण्डवाः इत्युक्ते युधिष्ठिरः, भीमः, अर्जुनः, नकुलः, सहदेवः, एते एव पञ्चपाण्डवाः. अन्ये केऽपि अनेन नोच्यन्ते. एवं दश अवताराः. यद्यपि भागवते एव महाविष्णोः विंशतेः ऊर्ध्वम् अवताराः उच्यन्ते, तथापि दशावताराः इत्युक्ते मत्स्यः, कूर्मः इत्यादि एव. अन्येषां तन्नाम नास्ति. अतः दशावताराः इति संज्ञा. अष्टादश पुराणानि. पुराणानां संख्या शतादपि अधिका. देर् आर् मोर् देन् 100 पुराणास्. किन्तु यत्र अष्टादश पुराणानि इति उच्यते तत्र विशिष्य तेषामेव तन्नाम. सो आल् दीस् आर् एक्साम्पल्स् आफ् संज्ञा, वेर् द नेम् इस् गिवन् टु अ पर्टिक्युलर् सेट् आफ् थिङ्ग्स् एण्ड् नाट् इन् जनरल्. Generally, any 10 avatars are not called dashavataras. Any 18 puranas are not called ashtadasha puranani. They are specifically referring to specific objects. This is called samgya. Anyatra, yatha pancha brahmanaha. Pancha brahmanaha does not signify any 5, does not signify a specific set. It can be any 5 brahmins. Tatra समासः न भवति. एवम् उत्तरा वृक्षाः नार्दर्न् ट्रीस्, तत्र उत्तरदिशि ये ये वृक्षाः ते सर्वेपि उत्तराः वृक्षाः, तत्रापि समासः उत्तरवृक्षाः इति समासः न भवति. पञ्चब्राह्मणाः इति समासः न भवति. दिक्सङ्ख्ये संज्ञायाम् एव समस्येते, अन्यत्र समासः न भवति. संज्ञाभावात् न समासः, अत्र संज्ञा नास्ति इत्यतः समासः न भवति इत्यर्थः. अत्र विशिष्य संख्यायाः विषये अस्माभिः बहु जागरूकतया व्यवहारः कर्तव्यः. दिग्वाचकानां व्यवहारः सामान्यतः अधिकतया न क्रियते, किन्तु संख्यावाचकानां सर्वत्र प्रयोगं कुर्मः, सर्वत्र दोषसहितं प्रयोगमेव कुर्मः. तत् अग्रे अस्ति. इदानीं पूर्वेषु कामशमि, अत्र कथं समासः, पूर्वा इषु कामशमी इत्यस्ति विग्रहः, लौकिकविग्रहः. पूर्वा सु इषु कामशमी, सु समानाधिकरण्यम् इत्युक्ते समानविभक्तिः. एतावत्पर्यन्तं यत्र यत्र तत्पुरुषः दृष्टः तत्र विभक्तिः भिन्ना, पूर्वपदस्य अन्या विभक्तिः, उत्तरपदस्य अन्या विभक्तिः. अत्र तु समानविभक्तिः, समानाधिकरण्यमस्ति. दिक्सङ्ख्ये संज्ञायाम् इत्यनेन समासः, सुपोधातुप्रातिपदिकयोः इत्यनेन सुब्लुक्, पूर्वा इषु कामशमी. तत्र अग्रे एकं वार्तिकम् उच्यते, अग्रे लघुसिद्धान्तकौमुद्यामेव अस्ति. सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः इत्यस्ति, अर्थात् यत्र यत्र सर्वनामशब्दः समासे अस्ति तत्र पुंवद्भावः, पुंवत् यद्यपि अत्र पूर्वा इति स्त्रीलिङ्गे अस्ति, सः पुंवत् पुल्लिङ्गशब्दवत् भवति, पूर्व इषुकामशमी इति भवति. आद्गुणः इत्यनेन गुणः, पूर्वेषु कामशमी. सु औजस् इत्यादिना सुप्रत्ययः, हल्याम्भ्यो दीर्घादित्यनेन सुलोपे, पूर्वेषु कामशमी इति शब्दः सिद्धः. एवमेव सप्त ऋषयः, तत्र सप्तन् जस् ऋषि जस् इति अलौकिकविग्रहः. सप्तन् इति नकारान्तं प्रातिपदिकं, जस् इति प्रथमाविभक्तौ बहुवचनप्रत्ययः. दिक्सङ्ख्ये संज्ञायाम् इति समासः, उपोधातुप्रातिपदिकयोः इत्यनेन सुब्लुक्, सप्तन् ऋषि. यत्र यत्र समासे पूर्वपदे नकारः भवति तस्य लोपः भवति, नलोपः प्रातिपदिकान्तस्य इति. सप्त ऋषि, आद्गुणः इति गुणे सप्तर्षि इति भवति. सप्तर्षि जस् पुनः प्रथमाविभक्तौ बहुवचनप्रत्ययः, तत्र जसि च इति गुणः. सप्तर्षि इत्यस्य गुणे सप्तर्षे अस् एचोयवायावः इत्यनेन आदेशे सप्तर्षयस् ऋत्वं विसर्गः सप्तर्षयः इति भवति. अत्र अपरं सूत्रमस्ति ऋत्यकः इति सूत्रं, यदि सिद्धान्तकौमुदी दृष्टा तत्र अच्सन्धिप्रकरणे अन्ते अस्ति न, प्रकृतिभावप्रकरणे अस्ति. ऋति परे अकः प्राग्वत्, ऋकारे परे प्रकृतिभावः विकल्पेन भवति, अर्थात् सन्धिः न भवति, आद्गुणः इति गुणः न भवति इति. यदि सन्धिः न भवति तदा सप्तऋषयः इत्यपि प्रयोगः अस्ति. एकमेव पदं सप्तऋषयः इति एकमेव पदं, तत्र सन्धिः, सन्धिरहितम् एकं रूपं, सन्धिसहितम् एकं रूपम्. सप्त ऋषयः इति विग्रहः, सप्तर्षयः सप्तऋषयः इति समस्तं पदम्. तत्र संख्यायाः विषये उक्तम् अस्माभिः प्रयोगः कथं करणीयः इति. प्रथमाविभक्तौ भेदः न ज्ञायते समासे कृते अथवा विग्रहे. सप्तर्षयः गच्छन्ति,
अन्यासु विभक्तिषु यदि समासः क्रियते एकमेव पदं सप्तर्षि इति सप्तर्षयः गच्छन्ति सप्तर्षिभिः उक्तम् सप्तर्षीणां नाम जानाति वा सप्तर्षिषु कः श्रेष्ठः इत्यादि उच्यते किन्तु यदि संज्ञा नास्ति तत्र पञ्चर्षयः गच्छन्ति पञ्च ऋषयः इति विग्रहवाक्ये अपि सन्धिः भवति अतः पञ्चर्षयः इति भवति पञ्चर्षयः गच्छन्ति किन्तु पञ्चभिः ऋषिभिः उक्तम् अत्र अन्याः विभक्तयः यदा प्रयुज्यन्ते तत्र समासः नास्ति चेत् सर्वत्र विभक्तिः भवति पञ्चभिः ऋषिभिः उक्तम् यतोहि पञ्च ऋषयः इति संज्ञा न एकेपि पञ्च ऋषयः अतः पञ्चभिः ऋषिभिः उक्तम् इत्येव वक्तव्यम् एवमेव यदि पञ्च बालकाः सन्ति वर्गे पञ्च बालकाः सन्ति इति युक्तं पञ्च इति पृथक् पदं बालकाः इति किन्तु पञ्चभिः बालकैः उक्तम् इत्येव न तु पञ्चबालकैः एवं पञ्चानां ऋषीणां नाम जानाति वा पञ्च ऋषीणाम् इति न भवति पञ्चबालकानाम् इति न भवति पञ्चबालकानां गणः इति दुष्टः प्रयोगः पञ्चानां बालकानां गणः एवं पञ्चसु ऋषिषु कः श्रेष्ठः सप्तर्षिषु समासः अस्ति चेदेकं पदं नो चेत् उभयत्र विभक्तिः भवेत् तदा एव अयं प्रयोगः साधुः यदि संज्ञा तर्हि समासः भवति यदि संज्ञा न तर्हि समासः न भवति समासः न भवति चेत् उभयोः पदयोः विभक्तिः भवेत् तत्र प्रथमा विभक्तौ न ज्ञायते अन्यासु विभक्तिषु अस्माभिः सामान्यतः दोषः क्रियते तत्र अवधानं दातव्यम् अवगतः वा विषयः Did you understand? Any questions? I can explain again if you have any doubts. So we can use the samasa only if it is referring to specific beings or specific objects. So in general, when we use a sankhya, when it is not referring to specific people or specific objects, then we cannot have a samasa. You have to use it as separate words, which means you have to put the vibhakti on both words. Okay? Adyatana Pathasya Sankshepaha Saptami Tat Purusham Nyatavantaha Saptami Shaundaihi Iti Sutrena Shaundadigane E Shabdaha Pathitaha Taisaha Saptamyantasya Samasaha Bhavati समाससूत्रेषु योगविभागस्य विषये ज्ञातवन्तः यत्र प्रयोगाः शिष्टप्रयोगाः दृश्यन्ते तत्र तेषां समर्थनार्थं सूत्राणां छेदः अस्माभिः क्रियते स एव योगविभागः इति कथ्यते दिग्वाचकानां संख्यावाचकानां च कर्मधारयसमासः भवति संज्ञायाम् एव भवति अन्यत्र न भवति दिक्संख्ये संज्ञायाम् इति सूत्रम् अन्यदपि सूत्रमस्ति द्विगुसमासः तस्य विषये श्वः पश्यामः किन्तु एतादृशः समासः संज्ञायाम् एव भवति द्विगुसमासे अर्थविशेषः भवति सामान्यतः एवं प्रयोगः न कर्तव्यः सप्तमी तत्पुरुषविधायकं सूत्रं सोदाहरणं विवृणुत तत्पुरुषसूत्रेषु योगविभागम् आश्रित्य टिप्पणीं लिखत योगविभागः नाम कः किमर्थं क्रियते उदाहरणं किम् इति वक्तव्यम् दिक्संख्ये संज्ञायाम् अस्य अर्थं लिखत एतत्तु दीर्घाः प्रश्नाः किन्तु श्वः अभ्यन्तरे एतत्तु करणीयं किं करणीयम् अत्र वाक्यानि सन्ति एतेषु वाक्येषु समासस्य साधुत्वं परिशील्य सर्वत्र मया समासः कृतः कुत्र समासः युक्तः कुत्र न युक्तः इति दृष्ट्वा असाधु वाक्यानि परिष्कृत्य लेखनीयानि। यत्र वाक्यं न साधु अथवा समासः न युज्यते तत्र परिष्कारः कथं लेखनीयम् इति वक्तव्यम्। साधूनां समासानां विग्रहवाक्यं लिखत। यदि समासः साधुः मया तत्र नीलवर्णेन चिह्नितं, तत्र सः समासः साधुः वा असाधुः वा? यदि साधुः तर्हि विग्रहः कः, यदि असाधुः तर्हि कथं लेखनीयम् इति तत्र अष्टवाक्यानि सन्ति। अष्टवाक्यानि इति भिन्नमेव, अष्टौ वाक्यानि अथवा अष्टवाक्यानि इति भिन्नः प्रयोगः, न तु समासः। अष्टौ वाक्यानि सन्ति, तेषां साधुत्वपरिशीलनं करणीयम्। एतत्तु श्वः अभ्यन्तरे कुर्वन्तु, श्वः वर्गात् पूर्वम् अस्य चर्चां कुर्मः। प्रश्नाः सन्ति वा? शुभा भगिनी, प्रश्नः अस्ति वा?
भगिनि, एतत् पञ्चमी तत्पुरुषसमासं सोदाहरणं ससूत्रं विवृणत इत्युक्ते एतद् सोकान्तिकदूरार्थ तत् सूत्रमपि
आम् तदपि अस्तु। येनाक्षरसमाम्नायमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मिं नित्रयम्। नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्।